गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकषे यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्चा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्य वोचददि वक्ता प्रथमो देव्योऽभिषक् अहेकश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्या असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेड एमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अर्षन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोज्या याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निषेध्य शल्यानामुखा शिवो न सुमनाभव विज्यम् धनुः कपद्मिनो विशल्यो बाणवागुम् उदा अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतुर्मीडुष्टमहस्ते बभूवते धनुः तयास्माद्विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायातता विनेक्षेत्राणां पतये नमो नमः श्रुताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये पारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नमीता यथावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृगाविभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तञ्चरद्य प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्र रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतदन्वने च नमो गिरिशाय च शिमिविष्टाय च नमो मेरुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च त्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय चापगर्भाय च नमो जघन्याय च बुद्धियाय च नमः शोभ्याय च मृतिशर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरोथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः कात्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः क्रोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐध्रियाय च तप्याय च नमो वात्याय च रेश्मियाय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाध्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपथ्याय च नमः केगुं शिलाय च क्षयणाय च नमः कवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः
कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वःकिरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाममत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तपसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृधि क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुराय चेपित तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो बतेर्हविष्मन्तो नमसा विधेमते आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यता च नः शर्म यच्च द्विबर्हाः सुनिश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः अवस्थिरा मघवद्भ्यस्तनुष्वमीडस्तोकायतनयाय मृडया मीडुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदा गहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचेना मुखाकृधे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसे अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवाशिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः
ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान
ये पथाम् पथिरक्षय ऐलभृदायव्युदः
ये तीर्थानि प्रचरन्ति श्रुकावन्तो निषङ्गिणः
य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे
तेषागुं सहस्रयोजने वधन्वानि तन्मसे
नमो रुद्रेभ्यो ये पृथिव्याम्
ये अन्तरिक्षे ये दिवि येषामन्नम् वातु
वर्षमिषवस्तेभ्यो
दश प्राचेर्दश दक्षिणा
दश प्रतिचेर्दशो
देचेर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृणयन्तु तेयम्
ग्रीष्मो यश्च नो द्वेष्टितम्
ओजम् वेदधामि
त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम्
उर्वारुकमिव बन्धना
मृत्योर्मुक्षेयमामृतात्
यो रुद्रो अग्नव्यो अप्सुय ओषधेषु
यो रुद्रो विश्वभुवना
विवेश तस्मै
रुद्राय नमो अस्तु
एते सहस्रमयुतम् पाशा
मृत्यो मर्त्याय हन्तवे
तानि यज्ञस्य मार्यया
सर्वानवयजामहे
मृत्यवे स्वाहा
मृत्यवे स्वाहा
प्राणानां ग्रन्थिरसि
रुद्रो मा विशान्तकः
तेनान्येनाप्यायस्व
नमो रुद्राय विष्णवे
मृत्युर्मे पाहि
तमुष्टु हि यस्विशुसुधन्वायो
विश्वस्य
क्षयति भेषजस्य
यक्ष्वा
महेशौ
मनसा यदुद्रम्
नमोभिर्देवमसुरन्दुवस्य
अयम् मे हस्तो भगवान्
अयम् मे भगवत्तरः
अयम् मे
विश्वभेषजोजगुम्
शिवाभिमर्शनः
ॐ
शान्ति
शान्ति
शान्तिः
ॐ
शं च मे मयश्च
मे प्रियं च
मे नुकामश्च
मे कामश्च
मे सौमनसश्च
मे
भद्रं च
मे
श्रेयश्च
मे
वश्यश्च
मे
यशश्च
मे भगश्च
मे
द्रविणं च
मे
यन्ता च
मे
धत्ता च
मे
क्षेमश्च
मे
धृतिश्च
मे
विश्वं
च मे
महश्च
मे
संविच्च
मे
ज्ञात्रं
च मे
सोश्च
मे
प्रसोश्च
मे
सेरं
च मे
लयश्च
मृतं
च मे
मृतं
च मे
यक्ष्मं
च मे
नामयच्च
मे
जीवातुश्च
मे
दीर्घायुत्वं
च मे
न मित्रं
च मे
भयं
च मे
सुखं
च मे
शयनं
च मे
सोषा
च मे
सुधिनं
च मे
ॐ
शान्ति
शान्ति
शान्तिः
ॐ
अत्रिणा
त्वा
कृमे हन्मे
कण्वेन
जमदग्निना
विश्वावसो
ब्रह्मणा
हतः
कृमीनागुम्
राजा
अप्येषागस्थमतिर्हतः
अथो
माता
चो पिता
अथो
स्थूरा
अथो
क्षुद्रा
अथो
कृष्णा
अथो
श्वेता
अथो
आशातिका
हता
श्वेता
सह
सर्वे
हता
आहरावद्य
श्रुतस्य
हविषो
यथा
तत्सत्यम्
यदमै
यमस्य जम्भयोः
आददामि तथा हि तत् खन्फन्मृषे ॐ शान्ति शान्ति शान्तिः ॐ आसत्येन रजसा वत्तमानो निवेशयन्नमृतम् मत्यम् च हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन्न अग्निम् धूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् एषामीशे पशुपतिः पशूनाम् चतुष्पदामुत च द्विपदा निष्क्रेतोऽयम् यज्ञियम् भागमेतुराय स्पोष यजमानस्य सन्तो ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्णियम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानिभेषज अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरीमिमाय सलिलानितक्षत्रेकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवशे सहस्राक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धा दिवः ककुःपतिः पृथिव्या अयजम् अपागुम् रेतागुम् सिजिन्वते स्योना पृथिविभवानुक्षया निवेशने यच्चा नः शर्म सप्रथाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसि गामश्वम् पोषयित्वासनो मृणातीदृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्बुद्ध्य स्वाग्नि प्रतिजागृह्येनमिष्टा पूर्ते सगुम् सृजेथ मयम् च पुनः कृण्वग्रस्त्वा पितरम् युवानमन्वादाहुंसि त्वहितम् त्वमेतम् इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागुम् सुरे विष्णो रराटमसि विष्णो पृष्ठमसि विष्णो स्नप्त्रे स्थो विष्णो शूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अधियधर्यो अर्हाद्धुमद्विपाति क्रतुमज्जनेषु यद्दीद यच्च वसत्त प्रजा ददस्मासु द्रविणम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथा शार्याते अपि वस्तुतस्य तव प्रणीते तव शूरशर्मन्नाभिवासन् कवयस्सु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषीमतः सुरुचो वेन आवह स बुद्ध्या उपमा अस्य विष्टा सतश्च यो निमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवः शुक्राय भालवे भरद्वगुम् भव्यम् मतिम् चाग्नये सुपूतम् यो दैव्यानि मानुषा जनोगुशन्तर्विश्वानि विद्मना जिगाते इन्द्राणि मासु नारिषु सुपत्नी महमश्रवम् न ह्यस्या अपरम् च न जरसा मरते पतिः ఇంద్రం వో విశ్వతస్పరిహవామహి జనేభ్యః అస్మాకమస్తు కేవలః ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ శుక్రాయ నమః ఓం శన్నో దేవీ దభిశ్చయ ఆపో భవంతు పీతయే శయ్యో రభిశ్రవంతు నః ప్రజాపతేన త్వదేతాన్ జన్యో విశ్వా జాతా హి పరితాప భూవ యత్కామాస్తే జుహుమస్తన్నో అస్తు భయగ్రశ్యామ పతయోరహీణా ఇమం యమః ప్రస్తరమాహి సీతాంగిరో పితృభిః సంవిధానః ఆత్వా మంత్రా కవిశస్తావహన్ త్వే నారాజన్ హవిషామాదయస్వ ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ శనీశ్చరాయ నమః ఓం కయానశ్చిత్రాభువధూతి సదా భృతః సఖా కయా సచిష్టయా భృత ఆయంగౌ ప్రశ్నిరక్రమీదసనన్ మాతరం పునః పితరం చ ప్రయన్ శుభః యత్తే దేవే నిరృతిరా భవన్ దదామ గ్రీవాస్వవిచత్యం ఇదం తే తద్విశ్యామ్యాయుషో నమద్యా దదా జీవ పితుమద్భి ప్రముక్తః ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ రాహవే నమః ఓం కేతున్ కృణ్వన్న కేతవే పేషో మర్యా అపేషసే సముషద్భిరజాయథాః బ్రహ్మా దేవానాం పదవే కవీనాం ఋషిర్విప్రాణాం మహిషో మృగాణాం శేనో రుద్రా నాగస్వదితిర్వనా నాగం సోమః పవిత్రమత్యేతిరేభన్న సచిత్రచిత్రం చితయంతమస్మే చిత్రక్షత్రచిత్రతమం వయోధాం చంద్రం రజిం పురువీరం బృహంతం చంద్ర చంద్రాభిర్బృఢతే యువస్వ ఓం అధిదేవత ప్రత్యధిదేవత సహితేభ్యః కేతుభ్యో నమః ఓం ఆదిత్యాది నవగ్రహ దేవత భ్యో నమో నమః ఓం శాంతి శాంతి శాంతిః ఓం తచ్చయోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నో అస్తు ద్విపదే శం చతుష్పదే ఓం శాంతి శాంతి శాంతిః సహస్రశీర్షా పురుషః సహస్రాక్షః సహస్రపాద్ స భూమిం విశ్వతో హృత్వా అత్యతిష్టద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉతామృతత్వస్యేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అతో జ్యాయాగుశ్చ పురుషః పాదోస్య విశ్వభూతాని త్రిపాదస్యామృతం దివే త్రిపాదూర్ధ్వ ఉదయత్ పురుషః పాదోస్యేహా భవాత్ పునః తతో విశ్వం వ్యక్రామత్ సాశనానశని అభి తస్మాద్ విరాడ జాయత విరాజో అధిపురుషః స జాతో అత్యరిచ్యత ಪಶ್ಚಾದ್ಭೂಮಿಮಥ ಪುರಃ ಯತ್ಪುರುಷೇಣ ಹವಿಷಾ ದೇವಾಯಜ್ಞಮತನ್ವತ ವಸಂತೋ ಅಸ್ಯಾಸೀದಾಜ್ಯಂ ಗ್ರೀಷ್ಮ ಇದ್ಮ ಶರದ್ಧವಿಃ ಸಪ್ತಾಸ್ಯಾಸನ್ ಪರಿಧಯಃ ತ್ರಿಸಪ್ತ ಸಮಿದಃ ಕೃತಾಃ ದೇವಾಯದ್ಯಜ್ಞಂ ತನ್ವಾನಾಃ ಅಬಧ್ನನ್ ಪುರುಷಂ ಪಶುಂ ತಯ್ಯಜ್ಞಂ ಬರ್ಹಿಷಿ ಪ್ರೋಕ್ಷನ್ನ ಪುರುಷಂ ಜಾತಮಗ್ರತಃ ತೇನ ದೇವಾ ಅಯಜಂತ ಸಾಧ್ಯಾರಿಷಯಸ್ಯ ಯೇ ತಸ್ಮಾದ್ಯಜ್ಞಾತ್ ಸರ್ವಹುತಃ ಸಂಹೃತಂ ವೃಷದಾಜ್ಯಂ ಪಶೋಗುಸ್ತಾಗುಶ್ಚಕ್ರೇ ವಾಯವ್ಯಾನ ಆರಣ್ಯಾನ್ ಗ್ರಾಮ್ಯಾಶ್ಚ ಯೇ ತಸ್ಮಾದ್ಯಜ್ಞಾತ್ ಸರ್ವಹುತಃ ಋಚಸ್ಸಾಮಾನಿ ಜಗ್ನಿರೇ ಛಂದಾಗುಂಸಿ ಜಗ್ನಿರೇ ತಸ್ಮಾತ್ ಯಜುಸ್ತಸ್ಮಾದಜಾಯತ ತಸ್ಮಾದಶ್ವ ಅಜಾಯಂತ ಏಕೇಚೋ ಭಯಾತತಃ ಗಾವೋಹ ಜಗ್ನಿರೇ ತಸ್ಮಾತ್ ತಸ್ಮಾಜಾತ ಅಜಾವಯಃ ಯತ್ಪುರುಷಂ ವ್ಯದದೋ ಕಲಿದಾವ್ಯಕಲ್ಪಯನ್ ಮುಖಂ ಕಿಮಸ್ಯ ಕೌ ಬಾಹೋ ಕಾಭೂರೂಪಾದಾವುಚ್ಯೇತೆ ಬ್ರಾಹ್ಮಣೋಸ್ಯ ಮುಖಮಾಸೀತ್ ಬಾಹೋರಾಜನ್ಯಕೃತಃ ಊರೋ ತದಸ್ಯ ಯದ್ವೈಷ್ಯಃ ಪದ್ಭ್ಯಾಗುಂ ಶೂತ್ರೋ ಅಜಾಯತ ಚಂದ್ರಮಾ ಮನಸೋ ಜಾತಃ ಚಕ್ಷೋ ಸೂರ್ಯೋ ಅಜಾಯತ ಮುಖಾದಿಂದ್ರಶ್ಚಾಗ್ನಿಶ್ಚ ಪ್ರಾಣಾದ್ವಾಯುರಜಾಯತ ನಾಭ್ಯಾ ಆಸೀದಂತರಿಕ್ಷಂ ಶೇಷ್ಣೋದ್ರೌ ಸಮವರ್ತತ ಪದ್ಭ್ಯಾಂ ಭೂಮಿರ್ದಿಶಶ್ರೋತ್ರಾತ್ ತಥಾ ಲೋಕಾಕುಂ ಅಕಲ್ಪಯನ್ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಸ್ತು ಪಾರೇ ಸರ್ವಾಣಿ ರೂಪಾಣಿ ವಿಚಿತ್ಯ ಧೀರಃ ನಾಮಾನಿ ಕೃತ್ವಾಭಿವದನ್ಯದಾಸ್ತೆ ಧಾತಾ ಪುರಸ್ತಾದ್ಯಮುದಾ ಜಹಾರ ಶಕ್ರಃ ಪ್ರವಿದ್ವಾನ್ ಪ್ರದಿಶಶ್ಚತಸ್ರಃ ತಮೇವಂ ವಿದ್ವಾನ್ ಅಭೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ಅಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾಃ ತಾನಿ ಧರ್ಮಾಣಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇಹನಾಕಂ ಮಹಿಮಾನಸ್ರಚಂದೇ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾಸಂತಿ ದೇವಾಃ ಅಭ್ಯಸಂಭೂತ ಪೃಥಿವ್ಯೈರಸಾಚ ವಿಶ್ವಕರ್ಮಣ ಸಮವರ್ತತಾಧಿ ತಸ್ಯ ತ್ವಷ್ಟಾ ವಿಧದದ್ರೂಪಮೇತಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವಮಾಜಾನಮಗ್ರೇ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನ್ ಅಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ವಿದ್ಯತೆ ಅನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂಧಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾಃ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇಧಸಃ ಯೋ ದೇವೇಭ್ಯ ಆತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಣೇ
ఋచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే రేశ్చ తే లక్ష్మేశ్చ పత్న్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినౌ వ్యాత్తం ఇష్టం మనిషాణ అముం మనిషాణ సర్వం మనిషాణ తచ్చయ్యోరావృణీమహే గాతయ్యజ్ఞాయ గాతయ్యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నో అస్తు ద్విపదే శరం చతుష్పదే ఓం శాంతి శాంతి శాంతిః ఓం సహస్రపరమాదేవీ శతమూలా శతాంకురా సర్వం హరతు మే పాపం దూర్వా దుస్వప్ననాశనీ కాండాత్ కాండాత్ ప్రరోహంతి పరుష పరుష పరే ఏవానో దూర్విప్రతను సహస్రేణ శతేన చ యా శతేన ప్రతనోషి సహస్రేణ విరోహసే తస్యాస్తే దేవేష్టకే విధేమః విశాపయం అశ్వక్రాంతే రథక్రాంతే విష్ణుక్రాంతే వసుంధరా శిరసా ధారయిష్యామి రక్షస్వ మాం పదే పదే భూమిర్ధేనుర్ధరణీ లోకధారిణీ ఉద్ధృతా శివరాహేణ కృష్ణేన శతబాహునా మృత్తికే హన మే పాపం జన్మయా దుష్కృతం కృతం మృత్తికే బ్రహ్మ దత్తాసి కాశ్యపేనాభిమంత్రిత మృత్తికే దేహి మే సృష్టిం త్వయి సర్వం ప్రతిష్ఠితం మృత్తికే ప్రతిష్ఠితే సర్వం తన్మే నిర్ణుద మృత్తికే తయా హతేన పాపేన గచ్ఛామి పరమాం గతిం రాజాదిరాజాయ ప్రసయ్యసాహినే నమో వయం వై శ్రవణాయ కుల్మహే సమే కామాన్ కామకామాయ మహ్యం కామేశ్వరో వై శ్రవణో దధాతు కుబేరాయ వై శ్రవణాయ మహారాజాయ నమః స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహీం మహేశాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతిః